इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः भोपालस्य जम्बूरी प्राङ्गणे लोकमाता देवी अहल्याबाई इत्यस्याः 30तम्याः जयन्त्याः अवसरे आयोजितं महिला सशक्तीकरण सम्मेलनं सम्बोधितवान्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् पहलगाम आतंकी आक्रमणं भारतस्य नारी शक्तीनां कृते समाह्वानम् आसीत्। सममेव आक्रमणस्य व्यूः रचयित्रीणां कृते मृत्योः सन्देशम् एव वर्तते। असौ प्रोक्तवान् यत् भारतं कश्चिदपि परोक्षयुद्धम् अक्षम्यरूपेण द्रक्ष्यति। प्रशासनस्य जनकल्याण योजनायाः विषये सः अवोचत् यत् अस्माकं प्रशासनं लोकमाता अहिल्याबाई देव्याः नागरिक देवो भवः इति मन्त्रमालक्ष्य कार्यं करोति। अस्माकं प्रशासनं महिला नेतृत्वे विकासस्य दृष्टिकोणं मुख्याधारात्वेन निर्माति। प्रशासनस्य प्रत्येकं उत्तमासु योजनासु महिलानां महत्वपूर्णा भूमिका वर्तते।
आतंकवादियों ने भारत की नारी शक्ति को चुनौती दी है। ये चुनौती आतंकवादियों और उनके आकाओं के लिए काल बन गई है। ऑपरेशन सिंदूर आतंकवादियों के खिलाफ भारत के इतिहास का सबसे बड़ा और सफल ऑपरेशन है। जहां पाकिस्तान की सेना ने सोचा तक नहीं था, वहां आतंकी ठिकानों को हमारी सेना ने मिट्टी में मिला दिया।
केन्द्रीय कृषि एवं कृषक कल्याण मंत्री शिवराज सिंह चौहान अवोचत् यत् विकसितं कृषि संकल्प अभियानं केवलं सर्वकारीय योजनात्वेन न अपितु जन आन्दोलनत्वेन वर्तते। योजना इयं कृषकेभ्यः बहुमूल्याः सूचनाः यच्छति। विभिन्नानां राज्यानां विधायकैः समं आभासीय माध्यमेन वार्तां कुर्वन् श्री चौहानः अवोचत् यत् अस्य अभियानस्य अन्तर्गतं कृषकैः साकं प्रमुख विषयेषु चर्चां भविष्यति, अपि च तेषां सर्वेषां प्रश्नानां समाधानं सम्बन्धित विषय विशेषज्ञाः विधास्यन्ति। श्री चौहानेन प्रोक्तं यत् अस्य लाभः कृषिकार्ये निश्चयप्रचं भविष्यति। NIA इति राष्ट्रिय अन्वेषण अभिकरण इत्यनेन पाकिस्तान सम्बद्ध प्रकरणे अष्ट राज्यस्य 15 स्थानेषु अन्वेषणं विहितम्। एकस्मिन् वक्तव्ये NIA इत्यनेन उक्तं यत् दिल्ली, मुम्बई, हरियाणा, उत्तरप्रदेश, राजस्थान, छत्तीसगढ़, असम, पश्चिम बंग राज्ये च अन्वेषणम् अभवत्, यतोहि पाकिस्तानस्य गुप्तचर कार्यकर्तारः PIO इत्यतः सम्बद्ध कार्यालयेषु कार्यं कुर्वन्ति। दक्षिण कोरिया देशस्य गुमी नगरे 25-2000 वर्षे आयोजितायां एशियन एथलेटिक्स चैम्पियनशिप्स क्रीडायां भारतं 24 पदकानि विजित्य पदक तालिकायां द्वितीयं स्थानं भजते। प्रतियोगितासु भारतं 8 स्वर्ण पदकानि, 10 रजत पदकानि, 6 कांस्य पदकानि च अवाप्नोत्। एतदतिरिच्य अनिमेश कुजूर, पारूल चौधरे च अस्मिन् कार्यक्रमे नूतनं राष्ट्रिय कीर्तिमानं स्थापितवन्तौ। ह्यः चैम्पियनशिप स्पर्धायाः अन्तिमे दिने भारतं 3 रजत पदकानि, 3 कांस्य पदकानि च प्राप्नोत्। IPL क्रिकेट स्पर्धायाम् अद्य अहमदाबादस्य नरेन्द्र मोदी क्रीडाङ्गणे मुम्बई इण्डियन्स दलं पंजाब किंग्स दलं सम्मुखी करिष्यति। अवधेयं यत् क्रीडा इयं सायं 7:30 भविष्यति, अपि च विजयत्वेन यद्दलं भविष्यति तस्य दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलस्य साकं नरेन्द्र मोदी क्रीडाङ्गणे मंगलवासरे भविष्यति। प्रियाः श्रोतारः संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति इति वार्ताः।